सर्वेषां सम्भाषणसंस्कृतकक्षायां पुनः एकवारं स्वागतम्. आरम्भे अहम् एकं श्लोकं वदामि. ज्यायसि चेत् कर्मणस्ते मता बुद्धिर्जनार्दन, तत्किं कर्मणि घोरे मां नियोजयसि केशव. इत्युक्ते अत्र अयं श्लोकः भगवद्गीतायाम् अस्ति. अत्र अर्जुनः श्रीकृष्णं पृच्छति किम् इत्युक्ते, हे भगवन्, कर्मणः अपेक्षया ज्ञानम् एव श्रेष्ठम् इति भवान् चिन्तयति चेत् किमर्थम् एतादृशं घोरं युद्धं कर्तुं मां प्रेरयति? तत्र कारणं किं, किञ्चित् विवृणोतु इति अर्जुनः परमात्मानं भगवन्तं पृच्छति. अत्र तदनन्तरं कृष्णपरमात्मा कर्मणः प्राधान्यं वदति. तत्र गीता भगवद्गीतायाः तृतीयाध्यायस्य प्रथमश्लोकः अयं श्लोकः. अत्र किन्तु किमर्थम् इमं श्लोकं स्मारितवती अद्य इत्युक्ते, अस्मिन् श्लोके एकं नूतनं पदमस्ति अस्माकं कृते, चेत् नो चेत्. अद्यतन अस्माकं नूतनविषयः अस्ति चेत्. तदर्थम् इमं श्लोकम् उक्तवती. अत्र गते सप्ताहे वयं तुमुन् प्रत्ययान्तरूपाणां विषये किञ्चित् अधीतवन्तः. भवन्तः सर्वे स्वीयवाक्यानि रचितवन्तः इति मम चिन्तनम्. अत्र आरम्भे अत्र किञ्चित् गृहपाठविषये चिन्तनं कृत्वा अग्रे गच्छेम. अत्र भूमा भगिनी श्रावयतु वाक्यानि. अस्ति वा भगिनि?
मम सखी माम् एकं पारितोषकं दातुम् इच्छति. यूयं श्वः किं द्रष्टुं चित्रमन्दिरम् अगच्छत? मम भ्राता वयं तस्य गृहम् आह्वातुम् आह्वानपत्रिकां प्रेषयति. जीवने उत्तमकार्याणि साधयितुं प्रयत्नं करिष्यामि.
उत्तमं, धन्यवादः भगिनी, धन्यवादः. उत्तमम्. अनन्तरं शोभा भगिनी वदतु वाक्यानि.
नमस्ते भगिनि.
नमस्ते.
अहम् अत्र कानिचन वाक्यानि पठामि. यथा यः ज्ञातुम् इच्छति सः जिज्ञासुः. यः भोक्तुम् इच्छति सः बुभुक्षुः. यः कर्तुम् इच्छति सः चिकीर्षुः. यः द्रष्टुम् इच्छति सः दिदृक्षुः. यः श्रोतुम् इच्छति सः शुश्रूषुः. यः पातुम् इच्छति सः पिपासुः. अपि च यः मोक्तुम् इच्छति सः मुमुक्षुः.
उत्तमम्. उत्तमानि पदानि. उत्तमं भगिनि,
धन्यवादः.
सन्प्रत्ययान्तरूपाणि. उत्तमम्. अग्रे अत्र उषा भगिनी वदतु.
महिलाः वस्त्राणि प्रक्षालयितुं नद्यां गतवत्यः. कुटुम्बेन सह विवाहं गन्तुं कारयानम् आवश्यकम्. छात्राः पुस्तकं पठितुं ग्रन्थालयं गच्छन्ति. अहं श्रान्ता, किमपि कार्यं कर्तुं न इच्छामि. सङ्गीतप्रियाः वीणावादनं श्रोतुम् इच्छन्ति.
अनन्तरम् अत्र धन्यवादः भगिनि. रघुपत्याचार्यमहोदय, भवान् श्रावयतु.
भगिनि क्षम्यतां, न कृतवान्.
अस्तु, चिन्ता मास्तु. अधुना वयम् अत्र अभ्यासपुस्तके इतोपि किमस्ति एकवारं पश्येम. अद्यतन अस्माकं नूतनविषयः अत्र इदानीं पर्यन्तं वयं किं कृतवन्तः, अत्र नवषष्टितमे पुटे अथवा एकोनसप्ततितमं पुटं पश्यन्तु सर्वे. अत्र पेज् 69 अत्र 32.1 भागे अत्र एकं सम्भाषणं दत्तमस्ति, तस्मिन् विषये किञ्चित् चिन्तनं कुर्मः. तत्र इतोपि कानिचन नूतनानि पदानि दत्तानि, तत्र तेषां विषये अधुना चिन्तनं कुर्मः. आरम्भे अत्र उषा भगिनी भवती पठतु. अत्र न अत्र चित्रमस्ति अपि च सम्भाषणमस्ति, वैद्यः अपि च रोगी तयोर्मध्ये सम्भाषणं एकवारं पठन्तु. शोभा भगिनी अपि च उषा भगिनी सम्भाषणं पठन्तु.
आं भगिनि. वैद्यः किम् अभवत्?
रोगी: ज्वरः श्रीमन्.
कदा आरभ्य?
इह आरभ्य, शिरोवेदना अपि अस्ति.
आहारः रोचते वा?
आम् रोचते.
जिह्वां प्रदर्शयतु. भवतु, एतत् औषधम् एताः गुलिकाः च स्वीकरोतु.
सूच्यौषधं न आवश्यकं वा?
न, एतदेव पर्याप्तम्.
अद्य मया स्नानं कर्तुं शक्यते किल?
शक्यते, किन्तु उष्णजलेन करोतु, शीतजलेन मास्तु, यतः भवतः ज्वरः प्रायशः शीतकारणतः एव आगतः स्यात्.
श्रीमन्, अहं श्वः स्वस्थः भविष्यामि वा?
एतत् औषधं स्वीकरोतु, निश्चयेन स्वस्थः भविष्यति भवान्.
धन्यवादः.
उत्तमम्. अत्र उषा भगिनी किञ्चित् अत्र चित्रं दृष्ट्वा किञ्चित् वदतु. चित्रं दृष्ट्वा भवती किम् अवगतवती? तत्र किम् अस्ति, के के सन्ति, अत्र स्थितिः का?
एकः वैद्यः अस्ति, अनन्तरं रोगी अस्वस्थः रोगी निद्रा नाट् निद्रां लैक् लैङ्ग् डौन् हौ डु से भगिनि
अत्र पटे तत्र निद्रां न करोति, जागृतः एव वदतु.
जागृतः एव. औषधस्य कूप्यौ दृश्यति तत्र. वैद्यः उपनेत्रं धारयति
धरति. तस्य हस्ते
स्टेथोस्कोप्.
अत्र अहं दृष्टवती, तदर्थं वदामि, शब्दकोशं दृष्टवती अतः वदामि. तस्य नाम अस्ति स्यन्दमापिनी. स्यन्दमापिनी इति स्टेथोस्कोप् इति वदामः. स्यन्दमापिनी
तस्य अस्ति, स्यन्दमापिनी अस्ति.
उत्तमम्. अत्र वैद्यः इति पदमस्ति. वैद्यः इत्यस्मिन् अर्थे एव कृषक् इति पदमपि अस्ति. अपि च वैद्यः इत्युक्ते तत्र वैद्य इति पदं तद्धितप्रत्ययान्तरूपम् इति अहं चिन्तयामि. तत्र विद् धातोः रूपं तत्र यः आयुर्वेदम् इत्युक्ते प्राचीनकाले केवलम् आयुर्वेदम् एव अस्ति. यः आयुर्वेदं जानाति सः एव वैद्यः. यः तां विद्यां जानाति सः एव वैद्यः. अत्र भिषक् इति पदमस्ति वैद्यः इत्यस्मिन् अर्थे एव. अत्र पश्यतु कूपी इति पदमस्ति, वयं जानीमः ईकारान्तपदं. किन्तु कूपः इत्युक्ते किम् इति अहं दृष्टवती, तदर्थं वदामि. अत्र कूपः इत्युक्ते अत्र कूपः इत्युक्ते वेल् एव, कुवन्ति मण्डूकाः तस्मिन्, कुवन्ति मण्डूकाः अस्मिन्. कुवन्ति इत्युक्ते शब्दं कुर्वन्ति. तत्र निर्वचनम् इति वदामः, कूपः इति पदस्य निर्वचनम् अस्मिन् मण्डूकाः कुवन्ति इति अर्थः. कुवन्ति इत्युक्ते तत्र शब्दं करोति इत्यस्मिन् अर्थे. अत्र रोगी इति पदमस्ति, तत्र रोगीपदस्य विषये किञ्चित् वदतु भगिनि.
रोगी रोगिन् अस्ति भगिनि, नकारान्तपुंलिङ्ग.
नकारान्तपुंलिङ्गम्. अपि च अत्र रोगः इति पदमपि अस्ति. रोगी इति पुंलिङ्गशब्दः, रोगः इति पदं स्वीकुर्मः चेत् तत्र रुज् इति धातुतः रोगः इति पदम् आगतं. तत्र घञ् प्रत्ययः अस्ति. वैद्यः इत्यस्य कृते अन्यनाम अपि अस्ति, रोगज्ञः. यथा वयं शास्त्रज्ञः इति वदामः, तथा एव रोगज्ञः इति पदमपि अस्ति. उत्तमम्. अनन्तरं वदतु.
रोगी अपि रुग्णः इति पदयोः व्यत्यासं किमस्ति भगिनि?
रोगी अस्ति, अपि च रुग्णः अपि अस्ति. रोगी इत्यस्मिन् अर्थे एव, रुग्णः व्याधिपीडितः. उत्तमम्. इत्युक्ते तत्र रुग्णः इति पदं शान्तपदम् इव अस्ति, किन्तु द्रष्टव्यम्. अत्र अस्मिन् सम्भाषणे इतोपि किमस्ति, अत्र कोऽपि वदति वा, अत्र भूमा भगिनी किञ्चित् वदति वा, अत्र अभवत् इति पदमस्ति, किम् अभवत् इति रोगिणं पृच्छति वैद्यः. अत्र अभवत् इति पदस्य रूपाणि किञ्चित् वदति वा?
भूधातु लङ् लकारे आ उपसर्गः, लङ् लकार अभवत् भूत.
उत्तमम्. कोऽपि वदति वा अन्यानि रूपाणि अपि अस्माकं सर्वेषां कृते?
श्रीमन् अस्ति तत्र.
अत्र अभवत् इति भूमा भगिनी उक्तवती, अभवत् इति शब्दस्य अन्यानि रूपाणि, नवरूपाणि सन्ति वयं जानीमः. कोऽपि वदति वा? वदतु भगिनि.
अभवन्त अभवाम.
सुन्दरम्. उत्तमं भगिनी, धन्यवादः. अत्र नवरूपाणि सन्ति, किन्तु अत्र किम् अभवत् इत्युक्ते प्रथमपुरुषे एकवचने अस्ति. अत्र किम् अभवत् इति पृष्टवान्. तस्य उत्तरं किं? मम ज्वरः श्रीमन् इति सः वदति. श्रीमन् इति पदस्य विषये शोभा भगिनी किञ्चित् वदतु.
श्रीमन् संबोधनरूपम् अस्ति भगिनी, श्रीमान् पदस्य.
उत्तमम्. इतोपि अत्र आचार्यमहोदय भवान् किञ्चित् वदतु. अत्र श्रीमन् इति पदं यथा भगिनी उक्तवती सम्बोधनरूपं, किन्तु प्रथमविभक्त्यन्तरूपं श्रीमान्. अत्र यस्य यस्मिन् श्रीः अस्ति सः श्रीमान्. अत्र मतु प्रत्ययान्तरूपं यथा भगवान्. तत्र प्रातिपदिकमस्ति श्रीमत् इति प्रातिपदिकं, पुंलिङ्गरूपं श्रीमान्, मतुबन्तरूपम् इत्युक्ते यस्य यस्मिन् श्रीः अस्ति सः श्रीमान्. स्त्रीलिङ्गे किं वदामः भगिनी, वदतु शोभा भगिनी.
श्रीमती दीर्घैकारी.
उत्तमं श्रीमती. अनन्तरं सः वदति, वैद्यः वदति, कदा आरभ्य भवतः ज्वरः आरभ्य इत्यस्मिन् विषये किञ्चित् वदतु. अत्र उषा भगिनी वदतु.
कदा आरभ्य ल्यप् प्रत्यये अस्ति, आ उपसर्ग रब् धातु अस्ति भगिनि, अहं मन्ये रभते इति.
उत्तमम् उत्तमम् आरभते किन्तु ल्यबन्तरूपम् अस्ति. कदा आरभ्य भवतः ज्वरः? ह्यः आरभ्य. शिरोवेदना अपि अस्ति. अत्र एकं समस्तपदमस्ति अत्र शिरोवेदना. तत्र रघुपुताचार्यमहोदय किञ्चित् वदति वा अत्र विभक् तत्र समासः कः, समासस्य नाम किम्?
षष्टितत्पुरुषसमासः वेदना सप्तमी षष्टि एव शिरसः वेदना वा शिरसस्ति वा शिरसः
शिरसः वेदना इति अहं चिन्तयामि किन्तु
अथवा शिरसि वेदना सप्तमी भवति वा
द्रष्टव्यम् अत्र शिरसः वेदना वा अथवा शिरसि वेदना वा
शिरसः एव अहं चिन्तयामि शिरसः वेदना शिरोवेदना
शिरसः वेदना इति अहं मम चिन्तनम् उत्तमम्. अनन्तरम् अत्र शिरस् इति पदं सकारान्तपदं सः वदति आहारः रोचते वा इति वदति. अत्र रोचते इति पदस्य विषये को किञ्चित् वदति वा अत्र शोभा भगिनी भवती वदतु रोचते इत्यस्मिन् विषये.
हा रोचते तत्र रोचते चतुर्थी विभक्ति एव स्वीकरोति मह्यं रोचते इति. तत्र रुच् धातु अस्ति वा भगिनि? रुच् धातु आत्मनेपदी रोचते.
उत्तमम् उत्तमम् इत्युक्ते अत्र यथा भवती उक्तवती रुच् धातोः रूपं रोचते अकर्मकधातुः सः धातुः आहारः रोचते वा तत्र अत्र कर्तृपदं योजयित्वा वदामश्चेत् भवते आहारः रोचते वा अथवा तुभ्यं रोचते वा इति वक्तव्यमस्ति किन्तु तुभ्यं वा अथवा भवते इति न उक्तमस्ति. उत्तमम् आं रोचते जिह्वां प्रदर्शयतु इति वैद्यः रोगिणं पृच्छति जिह्वां प्रदर्शयतु. अत्र जिह्वाम् इति कर्मपदं किमर्थं कर्मपदं शोभा भगिनी वदतु.
प्रदर्शयतु कर्मपदं स्वीकरोति इति कृत्वा जिह्वां कर्मपदम् अस्ति. दर्शयतु प्रदर्शयतु दृश् धातुः
दृश् धातुः इत्युक्ते अत्र णिजन्तरूपम् अस्ति साधारणरूपं पश्यति किन्तु णिजन्तरूपं दर्शयति. अतः अत्र णिजन्तरूपम् अस्ति चेत् तत्र साधारणतया कर्मपदं सम्भवति एव. उत्तमम् अत्र जिह्वा इति पदमस्ति. जिह्वा इति पदं कथम् आगतं तत्र तस्य अर्थः कः इति अहं दृष्टवती शब्दकोशं दृष्टवती अतः वदामि. जिह्वा इत्युक्ते लिहन्ति अनया लिहन्ति अनया सा एव जिह्वा. लिहन्ति वयं पूर्वमेव दृष्टवन्तः लिह् धातुः लिह् धातुतः लेह्यं लिहन्ति तादृशानि पदानि सन्ति तथा एव तत्र जिह्वा तस्य नाम किमर्थम् इत्युक्ते लिहन्ति अनया सा एव जिह्वा इति दत्तमस्ति. अनन्तरं अत्र जिह्वां प्रदर्शयतु भवतु एतत् औषधं एताः गुलिकाः च स्वीकरोतु. अत्र एताः गुलिकाः गुमा भगिनी वदतु तत्र रूपं किम्
द्वितीया विभक्ति बहुवचनं
द्वितीया किमर्थं
कृ धातु सकर्मक धातु उपसर्ग कृ धातु
उत्तमम् अत्र औषधम् इति पदमस्ति औषधम् इति पदं कथम् आगतम् इत्युक्ते वयं साधारणतया शृणुमः औषधिः औषधिः इति पदमस्ति औषधितः औषधम् आगच्छति अतः तत्र अण् प्रत्ययान्तरूपम् अस्ति अपि च अत्र सूच्यौषधं न आवश्यकं सूच्यौषधम् इति पदमस्ति अत्र शोभ भगिनी एकवारं वदतु अत्र सन्धिः अस्ति सन्धेः नाम किम्
औ इति आगच्छति चेत् पुनरेकवारं वदतु भगिनी भगिनी एकं वाक्यम् उक्तवती
अत्र सूच्यौषधम् अत्र पदविच्छेदं कृत्वा वदतु
सूची इकारान्त औषधम् आदिमपदम् औ अस्ति इकार योगः औ वृद्धिसन्धि अहं पश्यामि अत्र तत्र अकार एकार औकार अस्ति इकार योगः
इकारस्य स्थाने यकार भवति इको एनचि वा
सूचि योगः औषधं पदविच्छेदं भगिनी वदतु अत्र
ईयोगः औ किं भवति ईयोगः औ ईयोगः असवर्णसर्वः अस्ति चेत् यण् सन्धिः भवति
अत्र यण् सन्धिः भवति अत्र यण् सन्धेः विषये किञ्चित् स्मर्तव्यम् इत्युक्ते तत्र पूर्वपरयोः स्थाने न नूतनवर्णः न आगच्छति केवलं पूर्ववर्णस्य स्थाने एव आगच्छति इत्युक्ते तत्र द्वयोः स्थाने न तत्र यदि वयं सूत्रं पश्यामश्चेत् तत्र साधारणतया गुणसन्धेः विषये वा अथवा सवर्णदीर्घसन्धेः विषये पूर्वपरयोः इति वदामः किन्तु अत्र केवलं इकः स्थाने यण् आदेशः भवति अचि परे इति वदामः अत्र इकः स्थाने यण् इक् प्रत्याहारस्य वर्णानां स्थाने यण् प्रत्याहारस्थवर्णाः आदेशाः भवन्ति सूच्यौषधं न आवश्यकं वा इति वदति अत्र सूची इति दीर्घ ईकारान्तपदमस्ति उत्तमं न एतदेव पर्याप् वदतु भगिनि
सूच्यौ औकार या वर्णस्य भवति सूच्यौषधम् अस्तु भगिनि धन्यवादः
इत्युक्ते तत्र औकारः तथा एव अत्र तिष्ठति केवलम् ईकारस्य स्थाने यकारः आगतः उत्तमम् अनन्तरं वैद्यः वदति सूच्यौषधम् आवश्यकं न आवश्यकं वा इति प्रश्नं पृच्छति तदा तस्य उत्तरं किं न एतदेव पर्याप्तम् एतदेव पर्याप्तं तत्र सन्धेः नाम किम्
एतत् एव तत्र एतत् जलां जशोन्ते सूत्रेण तकारस्य स्थाने दकारादेशः भवति एतद् एव एतदेव
वदतु भगिनि जस्त्वं भवति उत्तमम् एतदेव पर्याप्तम् अत्र पर्याप्तम् इति पदमस्ति अत्र अलम् अन्यत् पदमस्ति अलम् इत्यस्मिन् अर्थे पर्याप्तम् इति योजयामः अत्र पर्याप्तम् इति पदं कथमागतम् इत्युक्ते परि इति उपसर्गः अप् धातुः कृतान्तरूपं किन्तु पदं कृतान्तरूपम् अस्ति इति कृत्वा त्रिषु लिङ्गेषु रूपाणि भवन्ति किन्तु अत्र नपुंसकलिङ्गे दत्तमस्ति परियोगः अप् योगः पर्याप्त अपि च पर्याप्तिः इति पदमपि अस्ति पर्याप्तिः इति वदामश्चेत् तत्र क्टिं प्रत्ययान्तरूपम् अस्ति अग्रिमं वाक्यम् अद्य मया स्नानं कर्तुं शक्यते किल अत्र उषा भगिनी वदतु एतद् वाक्यं कीदृशं वाक्यम्
अद्य मया स्नानं कर्तुं शक्यते किल कर्मणि प्रयोगे अस्ति भगिनी मया तृतीयविभक्ति स्नानं प्रथमविभक्ति कर्तुं तुमुन् प्रत्यया शक्यते शक् धातु अस्ति आत्मनेपदी आत्मनेपदी शक्यते शक्ति उभयपदी अस्ति वा भगिनी शक्
अत्र शक् धातोः रूपं किन्तु अत्र कर्मणि लट् रूपं
कर्मणि लट् रूपम्
अत्र रोगी किमर्थं तथा उक्तवान् तथा पृष्टवान् मया स्नानं कर्तुं शक्यते किल वदतु स्वस्य वाक्यैः किमर्थं पृष्टवान्
अद्य मया स्नानं कर्तुं शक्यते किल अहं चिन्तयामि स्नानं न कृतवान्
किमपि वदतु भगिनि तत्र भवती किम् अवगतवती किमपि तत्र सम्यक् वा नास्ति किञ्चित् ऊहां कृत्वा वदतु
रोगी स्नानं कर्तुम् इच्छति अतः पृच्छति वैद्यः अहं स्नानं कर्तुं शक्यते किल अहं चिन्तयामि स्नानं कृत्वा सः चिन्तयति स्वस्थः भविष्यामि
इति सः ज्वरेण बाधितः शैत्यमपि अस्ति अतः इदानीं स्नानं शिरोवेदना अपि अस्ति यदि शीतजलेन स्नान सा तेन स्नानं कृतं चेत् ज्वरः अधिकः भवेत् इति तस्य शङ्का अस्ति अतः सः पृच्छति वैद्यम्
उत्तमं तदेव इत्युक्ते अद्य अहं स्नानं करोमि चेत् ज्वरः अधिकः भवति वा इति तस्य संशयः अत्र तदर्थं सः पृच्छति आम् तदा वैद्यः वदति शक्यते किन्तु उष्णजलेन करोतु शीतजलेन मास्तु अत्र उष्णजलं शीतजलम् इति पदद्वयमस्ति अत्र समस्तपदमस्ति कोऽपि वदति वा समासस्य नाम
उष्णस्य जलं शीतस्य जलं
तथा नाम जलं कर्मधारसमासः अस्ति अतः
कथं जानामि
विभक्ति समाना अस्ति अतः उष्णं जलं यत्र समानविभक्ति अस्ति तत्र प्रायः कर्मधारे एव
उत्तमं
कर्मधारा वा
अत्र साधारणतया समस्तपदमस्ति चेत् तत्र अर्धं दृष्ट्वा विग्रहवाक्यं वक्तव्यम् विग्रहवाक्यम् इत्युक्ते विग्रहवाक्यं साधारणतया अर्धं बोधयति अत्र जलं कीदृशम् उष्णं तत्र तयोर्मध्ये तत्र आधारः समानः समानाधिकरणीयमस्ति इत्युक्ते समानविभक्तिकत्वम् अपि अस्ति इति कृत्वा उष्णं तज्जलम् इति विग्रहवाक्यम् उष्णं च तज्जलं च शीतं च तज्जलं च तादृशरीत्या विग्रहवाक्यं वक्तव्यं तथा वदामश्चेत् अत्र जलस्य विशेषणमस्ति उष्णपदम् अत्र अपि च तस्मिन् पदे विशेषणं पूर्वपदमस्ति अतः तस्य नाम अस्ति विशेषणपूर्वपदकर्मधारयसमासः उत्तमम् अत्र उष्णजलेन करोतु शीतजलेन मास्तु यतः भवतः ज्वरः प्रायशः शीतकारणतः एव आगतः अत्र यतः इति पदमस्ति यतः योजयित्वा लिखितमस्ति. यतः इत्युक्ते भवती किम् अवगतवती? शोभा भगिनी वदतु.
यतः इत्युक्ते इति कारणतः, इति कारणेन, बिकास्, किमपि कारणेन, यतः बिकास् आङ्ग्लभाषायां यतः भवतः ज्वरः प्रायशः शीतकारणतः एव आगतः स्यात्. भवतः ज्वरः शीतकारणतः आगतः, अतः यतः तत्र यतः अतः सम्बन्धम् अस्ति भगिनि.
अत्र अत्र किञ्चित् वदामि. अत्र यतः योजयित्वा वाक्यं लिखितमस्ति. भवान् शीतजलेन स्नानं करोतु, यतः भवतः ज्वरः प्रायशः शीतकारणतः आगतः. किन्तु अतः योजयित्वा वदामश्चेत् कथं वक्तव्यं? भवतः ज्वरः प्रायशः शीतकारणतः आगतः, अतः
शीतजलेन स्नानं मास्तु.
इत्युक्ते अत्र अतः इति योजयित्वा वदामश्चेत् भिन्नरीत्या वक्तव्यं, यतः योजयित्वा वदामश्चेत् विपरीतक्रमेण वक्तव्यं. तथा अहं चिन्तयामि. उत्तमम्. अनन्तरम् आगतः स्यात्. श्रीमन् अह श्वः स्वस्थः भविष्यामि वा? अत्र स्वस्थः इत्युक्ते किं भगिनि वदतु?
स्वस्थः इत्युक्ते आरोग्यदायकः. स्वस्थः अस्ति वा भगिनि? स्थः, ओ स्वस्थः, स्थः स्था धातुः. स्वस्य स्वस्थः
इत्युक्ते अत्र यथा भवती उक्तवती, अत्र स्था दीर्घ आकारान्तधातुः अस्ति. अत्र स्वस्थः इत्युक्ते, तत्र स्वस्थः इत्युक्ते अस्माकं स्वस्य स्थितिः एव आरोग्यस्थितिः. यदा कदापि साधारणतया
बहु समीचीनं भगिनि.
अस्माकं स्थितिः तु स्वस्थ, वयं सर्वे स्वस्थाः एव, किन्तु यदा कदा यदा कदापि रोगः रोगम् आगच्छति एव, तदर्थमेव स्वस्थः. किन्तु स्वस्थ इत्यस्य भावः एव वदतु.
स्वास्थ्यं,
स्वास्थ्यं,
स्वास्थ्यं.
साधारणतया स्वास्थ्यं कथमस्ति, भवान् कथमस्ति तथा वदामः. अत्र स्वास्थ्यं कथमस्ति इति वदामः. उत्तमम्. अनन्तरं
अस्ति वा भगिनि?
तद्धितान्तं रूपं स्वास्थ्यम्. उत्तमम्. अनन्तरम् एतत् औषधं स्वीकरोतु, निश्चयेन स्वस्थः भविष्यति भवान् इति सः वदति. उत्तमम्. अनन्तरम् अत्र अस्मिन् सम्भाषणे चत्वारि नूतनानि पदानि दत्तानि अस्माकं कृते. किञ्चित् अभ्यासं कुर्मः एतान् पदान् योजयित्वा. अत्र अत्र विलम्बेन के के आगतवन्तः अत्र? इतोपि नलिनी भगिनी अस्ति इति भाति. अत्र अनोनिमस् इव अस्ति. भगिनी किञ्चित् उच्चैः वदतु, न श्रूयते.
अरुणा रामणि, अहम् आश्रम वर्गे अस्मि, ततः शृणोमि एव न वदामि.
अस्तु भगिनि, चिन्ता मास्तु, शृणोतु. उत्तमम्. अधुना अत्र चत्वारि पदानि सन्ति, किञ्चित् अभ्यासं कुर्मः. अहं वाक्यस्य प्रथमभागं वदामि, भवन्तः किञ्चित् चिन्तयित्वा द्वितीयभागं वदन्तु. अत्र भूमा भगिनी भवती किञ्चित् वदतु. भवान् पाठशालां गच्छतु, किन्तु
अहं चरितुं न शक्नोमि.
अत्र कथं वक्तव्यं, भवान् पाठशालां गच्छतु, गत्वा किन्तु
किन्तु पाठशालां गन्तुं पाठशालां चरित्र
नो चेत् भवती चिन्तयतु, तत्र चिन्ता मास्तु भगिनि. अत्र कोऽपि वदति वा अत्र किन्तु इति पदं योजयित्वा द्वितीयभागं कर्तुमिच्छामश्चेत् तत्र किं वदामश्चेत् तत्र समीचीनं भवति.
किन्तु मा क्रीडतु तत्र, भवान् ज्वरेण पीडिता अस्ति अतः तत्र मा क्रीडतु.
उत्तमम् इत्युक्ते भवान् पाठशालां गच्छतु किन्तु तत्र मा क्रीडतु, संस्कृतं पठतु इति वदामः. तथा एव भवान् बहिः गच्छतु किन्तु
उपाहारमन्दिरं मा गच्छतु. यथा रुग्णः अस्ति भवान्
शीघ्रमेव आगच्छतु.
शीघ्रमेव आगच्छतु बहिः. तदपि समीचीनं, भवान् बहिः गच्छतु किन्तु शीघ्रं गृहं प्रत्यागच्छतु अथवा मार्गे
अतीव भ्रमणं न करोतु.
अतीव भ्रमणं मा करोतु. उत्तमम्. अपि च अत्र भवान् संस्कृतं पठतु किन्तु
अभ्यासं कर्तुं न विस्मरतु.
अभ्यासं मा त्यजतु.
यावत् शक्यं तावत् अभ्यासं नित्यं करोतु.
आङ्ग्लभाषां न उपयोगं करोतु.
आङ्ग्लभाषायाः उपयोगं मा करोतु.
उत्तमम् उत्तमं. तदा एव वक्तव्यम्. अपि च अहम् एकं वाक्यं कानिचन वाक्यानि वदामि. अहं संस्कृतं पठामि किन्तु सम्यक् न स्मरामि. अथवा अहं संस्कृतं जानामि किन्तु काव्यानि अवगन्तुं न शक्नोमि. अपि च अहं संस्कृतं वदामि किन्तु मम उच्चारणं सम्यक् अस्ति वा इति चिन्तयामि. अथवा अहं संस्कृतं पाठयामि किन्तु सम्यक् पाठयामि वा न वा इति मम प्रश्नः. तथा तादृशरीत्या किन्तु योजयित्वा कानिचन वाक्यानि लेखितुं शक्नुमः. अनन्तरम् अत्र निश्चयेन इति पदमस्ति. निश्चयेन इति पदं योजयित्वा कानिचन वाक्यानि लेखितुं प्रयत्नं कुर्मः. अत्र कथं वक्तव्यम्, अत्र निश्चयेन इति योजयितुं शोभा भगिनी भवती वदतु. भवती संस्कृतशिक्षणशिबिरं गन्तुमिच्छति वा?
आम् आम् निश्चयेन गन्तुम् इच्छामि.
उत्तमम्. अपि च भवती संस्कृतगीतं श्रावयति वा?
संस्कृतगीतं श्रावयति न, अहं संस्कृतगीतं न श्रावयति श्रावयामि, शृणोमि.
शृणोमि निश्चयेन शृणोमि.
निश्चयेन शृणोमि.
उत्तमम्. अपि च अत्र भूमा भगिनी भवती वदतु, भवती सर्वदा संस्कृतभाषया वदति वा?
निश्चयेन अहं संस्कृत भाषितुं प्रयत्नं करोमि.
उत्तमम्. निश्चयेन प्रयत्नं करोमि. अपि च भवती संस्कृतव्याकरणकक्ष्यां गन्तुमिच्छति वा?
समयविलम्बेन अहं गन्तुं निश्चयेन गन्तुं न शक्नोमि.
इत्युक्ते समयाभावात्
समयाभावात्.
उत्तमम्. अत्र किञ्चित् अत्र निश्चयेन इत्यस्य कृते किञ्चित् अभ्यासः अत्र काचित् कश्चित् अभ्यासः इति वक्तव्यम्. उत्तमं. तथा एव निश्चयेन इति पदं योजयित्वा वाक्यानि रचयितुं शक्नुमः. अनन्तरम् अत्र एकं पदमस्ति, प्रायशः इति पदमस्ति. अत्र नलिनी भगिनी भवती वदति वा, प्रायशः योजयित्वा अहं वाक्यस्य प्रथमभागं वदामि, भवती द्वितीयभागं वदतु. भवती आगामि गुरुवासरे संस्कृतकक्षाम् आगमिष्यति वा?
अहं प्रायश्चेन आगामे गुरुवासरे संस्कृतवर्गे आगमिष्यामि.
आगमिष्यामि, उत्तमं. तथा एव अत्र इतोपि अत्र किल इति पदमस्ति. किल इति पदं योजयित्वा भवती कानिचन वाक्यानि वदतु, प्रायशः योजयित्वा अन्यानि वाक्यानि.
मया
भवती एव.
अहं प्रायश्चेन प्रायश्चेन संस्कृतं वक्तुं प्रयत्नं करोमि सदा.
अत्र पदमस्ति प्रायशः. प्रायशः इत्युक्ते अत्र अस्मिन् सम्भाषणे चत्वारि पदानि सन्ति, एतानि सर्वाणि अपि अव्ययानि. इत्युक्ते तत्र लिङ्गवचनपरिवर्तनं न भवति. अत्र पदमस्ति प्रायशः. वदतु.
अहं प्रायशः प्रभाते अटितुं गच्छामि.
उत्तमं.
प्रायशः वयं सर्वे श्लोकं कण्ठस्थीकरणं कुर्मः. प्रायशः सर्वे श्लोकाः कण्ठस्थीकुर्मः.
अहं उक्तवती वा? अहं प्रायशः श्लोकान् कण्ठस्थीकरोमि.
अहं प्रायशः श्लोकान् कण्ठस्थीकरोमि.
करोमि, उत्तमम्. इतोपि वाक्यं. धन्यवादः भगिनी. अत्र कोऽपि वदति वा?
अत्र कण्ठस्थीकरणम् इति आवश्यकं नास्ति वा? कण्ठस्थी एव अलम् अस्ति वा, अलं वा?
अत्र कण्ठस्थीकरोमि इति अपि समीचीनम्.
आं भगिनि,
तत्र एकः प्रत्ययः
अस्ति.
अत्र तत्र अत्र यथा स्पष्टीकरोति, स्वच्छीकरोति, तादृशरीत्या तत्र एकः प्रत्ययः अस्ति. कण्ठस्थीकरोति इति अपि सम्यक् इति मम चिन्तनम्. उत्तमम्. अनन्तरं कोऽपि वदति वा अन्यानि वाक्यानि प्रायशः योजयित्वा? अरुणा भगिनी वदति वा? नो चेत् कोऽपि.
प्रायशः प्रतिदिनम् अहं त्रीणि सूर्यनमस्काराणि करोमि.
त्रीन् सूर्यनमस्कारान् करोमि. त्रीन्
त्रीन्
पुंलिङ्गे, किमर्थं चेत् तत्र नमस्कारः इति पुंलिङ्गपदमस्ति. उत्तमम्. अपि च अहं कानिचन वाक्यानि वदामि. अद्य सायङ्काले प्रायशः बान्धवाः आगच्छन्ति मम गृहे, गृहमागच्छन्ति. तदनन्तरं प्रायशः वयं सर्वे चलनचित्रं द्रष्टुं गच्छामः. प्रायशः, प्रायशः इति वदामः. अनन्तरम् अत्र किल इति पदमस्ति. अत्र किल योजयित्वा कानिचन वाक्यानि वक्तव्यानि. अत्र अहं प्रथमतया अहं वदामि, अनन्तरं भवन्तः सर्वे वदन्तु. अत्र अहं यत् वदामि तत् सर्वं भवन्तः सर्वे अवगच्छन्ति किल? अवगच्छन्ति, भवन्तः सर्वे अवगच्छन्ति खलु? अथवा अत्र किं वदामः, प्रातःकाले वदतु भगिनि.
ननु अपि अस्ति. भगिनि समानपदमेव वा?
ननु अपि समानपदमेव. एकं वाक्यं वदतु भवती खलु योजयित्वा.
अद्य शैत्यं बहु शैत्यम् अस्ति ननु.
अत्र अस्माकम् अस्मिन् पुटे अस्माकम् अभ्यासः तु किल, तदर्थं किल योजयित्वा वदामः. उत्तमम्. अत्र
भवत्याः जन्मदिनम् अस्ति किल?
उत्तमम्. अपि च अत्र भूमा भगिनी भवती वदतु एकं वाक्यं.
भवत्याः गृहं विशालम् अस्ति किल?
उत्तमं. नलिनी भगिनी वदतु एकं वाक्यम्.
अद्य गुरुवासरे किल किल?
अद्य गुरुवासरः किल? उत्तमम्. अद्य गुरुवासरः. अपि च यदा दशवादनं भवति, भवन्तः सर्वे अत्र आगच्छन्ति खलु, आगतवन्तः खलु भवन्तः सर्वे. अपि च किल किल एव अस्माकम् अभ्यासः. तथा एव यदा सार्ध एकादशवादनं भवति तदा भवन्तः सर्वे इतः निर्गच्छन्ति किल? केवलं अत्र कक्षा नवतिनिमेषपर्यन्तम् एव भवति किल? तावत्पर्यन्तमेव भवन्तः सर्वे अत्र स्थातुम् इच्छन्ति किल? तादृशरीत्या वदतु.
भवती पृच्छति सर्वे जानन्ति किल?
उत्तमम्. उत्तमं.
मङ्गलवारं कार्तिकपौर्णमी खलु?
उत्तमं. मङ्गलवारः वासरः वारः तत्र पुंलिङ्गपदमेव. अनन्तरं कक्षायाः अनन्तरं भवन्तः सर्वे स्वस्य कार्यैः अन्यत्र गन्तव्यं किल इति वक्तुं शक्नुमः. उत्तमम्. अत्र आरभ्य इति पदमपि अस्ति. आरभ्य योजयित्वा कोऽपि वदति वा कानिचन वाक्यानि?
अहम् अद्य आरभ्य संस्कृतभाषायां सम्भाषितुं प्रतिज्ञां करोमि.
उत्तमम्. उत्तमं. शोभा भगिनी वदतु एकं वाक्यम् आरभ्य.
अद्य आरभ्य अहं संस्कृतव्याकरणं नित्यं पठितुं प्रयत्नं करोमि.
उत्तमम्. अत्र आचार्यमहोदय भवान् वदतु एकं वाक्यं.
श्वः आरभ्य अहं पुस्तकं पठितुम् इच्छामि, ग्रन्थं पठितुम् इच्छामि.
पठितुम् इच्छामि. नलिनी भगिनी भवती वदतु. नलिनी भगिनी
अद्य आरभ्य अहं संस्कृतम् एव वक्तुम् इच्छामि.
उत्तमं. भगिनी भवती एव किञ्चित् उत्तरं वदतु. अत्र अहं वाक्यस्य प्रथमभागं वदामि, भवती द्वितीयभागं किञ्चित् वदतु. अत्र पुस्तकानि पठितुमिच्छामि किन्तु किन्तु नित्यं
समयः न
तदेव इत्युक्ते समयः न मिलति. उत्तमम्. अत्र कृष्णफलकम् अस्ति किन्तु
सुधाखण्डः नास्ति.
उत्तमं. वदतु भगिनी, शोभा भगिनी वदतु.
उषा भगिनी उक्तवती
वदतु वदतु.
सुधाखण्डः नास्ति.
उत्तमं. कृष्णफलकम् अस्ति किन्तु सुधाखण्डः नास्ति, अतः लेखितुं न शक्नोमि. मम पार्श्वे करवस्त्रम् अस्ति किन्तु
शुद्धः नास्ति.
उपयोगस्य आवश्यकं नास्ति.
इत्युक्ते तस्य उपयोगं कर्तुं तस्य आवश्यकता नास्ति.
आनीतुं अविस्मरम्.
अत्र अविस्मरम् इत्युक्ते अत्र उत्तमपुरुषरूपम्. अनन्तरं मम समीपे 100 रूप्यकाणि सन्ति किन्तु
चेञ्ज् नास्ति. किन्तु
मूल्यम् अधिकमस्ति. इत्युक्ते तत्र मम समीपे 100 रूप्यकाणि सन्ति किन्तु तत्र किं वदामश्चेत् सम्यक् भवति?
ऐ डोण्ट् वाण्ट् टु स्पेण्ड्.
तदेव वदतु भगिनि, उषा भगिनि.
100 रूप्यकाणि अस्ति किन्तु अहं क्रेतुं
न इच्छामि.
क्रेतुं न इच्छामि. उत्तमम्.
अहं अटनं कर्तुम् इच्छामि किन्तु बाह्ये अतिशीतलम् अस्ति.
बहिः अतिशीतलम् अस्ति.
भगिनि एकवाक्यं
वदतु वदतु.
अहं गृहं गन्तुम् इच्छामि किन्तु आल् द फ्लैट्स् आर् केन्सल्ड्. कथं उक्तं भगिनि?
वदतु, भवती एव प्रयत्नं करोतु.
अहं गृहं गन्तुम् इच्छामि किन्तु
किन्तु
विमानं न जानामि.
न चलति. वदतु महोदय, वदतु महोदय.
विमानयानसेवा स्थगितः अस्ति.
विमान पर्यटनं निषेधः अस्ति. अपि सम्यक् अस्ति वा?
स्थगितं स्थगितं स्थगनं स्थगितम् अस्ति वा? स्थगितः अस्ति वा? न जानामि. विमानयानं स्थगितम् अस्ति.
अत्र किञ्चित् म्यूट् करोमि. अत्र विमानानि स्थगितानि अथवा विमानयानसेवा स्थगिता. उत्तमम्. अनन्तरं मम समीपे धनमस्ति किन्तु व्ययं न करोमि. किं तथा एव अहं मधुरम् इच्छामि किन्तु
मधुरं मह्यं मधुरमिच्छामि किन्तु अद्य अहं मया न खाद्यते.
मया न खाद्यते इत्युक्ते अत्र अहम् अद्य खादितुं न शक्नोमि. तावदेव.
अहम् अस्वस्थः अस्मि.
अहम् अस्वस्थः अस्मि. मम आरोग्यं समीचीनं नास्ति, अतः खादितुं न शक्नोमि. वदतु भगिनि.
अहं डायबिटिक् किन्तु मधुरं न खादितुं शक्नोमि.
उत्तमं. तदेव उत्तमम्. अधुना इदानीं पर्यन्तं वयं किञ्चित् अभ्यासं कृतवन्तः. अस्माकं नूतनं पदमस्ति चेत्. अग्रे गत्वा अग्रिमे पुटे 33.1 भागे तत्र चेत् इति नूतनं पदमस्ति. अत्र कानिचन पदानि अक्कड अत्र कोष्टकमस्ति. कोष्टके कानिचन पदानि सन्ति. अत्र वामभागे कानिचन पदानि दक्षिणभागे अपि पदानि सन्ति, मध्ये चेत् इति पदमस्ति. अत्र एकः श्लोकः अपि अस्ति, सुखार्थी चेत् त्यजेत् विद्या, विद्यार्थी चेत् त्यजेत् सुखम्, सुखार्थिनः कुतो विद्या, कुतो विद्यार्थिनः सुखम् इति वयं ज्ञातवन्तः. इत्युक्ते यदि भवान् केवलं सुखमेव इच्छति चेत् विद्यां त्यजतु, यदि सुखमिच्छति चेत् विद्यां त्यजतु, विद्यामिच्छति चेत् सुखं त्यक्तव्यम् इति विषयः. अत्र चेत् इत्यस्मिन् विषये अहम् एकं वक्तुमिच्छामि. अत्र किमित्युक्ते तत्र वयं पूर्वमेव ज्ञातवन्तः यदि तर्हि, अत्र यदि तर्हि योजयित्वा अपि वाक्यरचनां कर्तुं शक्नुमः, चेत् अपि तस्मिन् अर्थे एव उपयोगं कुर्मः अत्र. किन्तु मिलित्वा तस्य उपयोगः न भवति. इत्युक्ते यदि चेत् एकस्मिन्नेव वाक्ये न आगच्छति. अत्र केवलं यदि इत्यस्य उपयोगं कुर्मः चेत् यदि तर्हि इति वक्तव्यम्. तत्र चेत् इति पदस्य योजनेन अपि तादृश अर्थः एव सिद्ध्यति. तत्र अमरकोशे एकं वाक्यमस्ति, पक्षान्तरे चेद्यदि च. अनेन वाक्येन वयं किम् अवगन्तुं शक्नुमः इत्युक्ते, यदि चेत् उभयोः अर्थः तु समानः, अनयोः द्वयोः एकस्मिन् वाक्ये यदि चेत् द्वयोः उपयोगं कुर्मः चेत् तत्र पुनरुक्तिदोषः भवति. तदर्थं यदि प्रयोगे चेत् प्रयोगः न स्यात्. यदि प्रयोगं कुर्मः चेत् तदा केवलं तर्हि एव वक्तव्यम् इति अत्र एकः नियमः अस्ति. तत्र कथम्, अत्र यदि धनमस्ति तर्हि दानं करोमि, अथवा धनमस्ति चेत् दानं करोमि, तथा वक्तव्यम्. अत्र भूमा भगिनी वदतु, अत्र वाक्यानि रचयतु, पदानि एकमेकम् अत्र पदं स्वीकृत्य वदतु.
वृष्टिः भवति चेत् सस्यसमृद्धिः भवति, निर्वाचनम् अस्ति चेत् कोलाहलः भवति, धूमपानं त्यजेत् चेत् अनारोग्यं नास्ति. तत्कार्यं कुर्वन्ति चेत् कीर्तिः भविष्यति, विद्युत् अस्ति चेत् दीपः ज्वलति, उपनेत्रम् अस्ति चेत्
अत्र भगिनि अत्र ज्वलति इति क्रियापदं, ज्वलति अपि अस्ति, किन्तु अत्र ज्वलति
दीपः ज्वलति.
उत्तमम्.
उपनेत्रम् अस्ति चेत् पठनं, पुस्तकपठनं सुलभं भवति. जलम् अस्ति चेत् वस्त्रक्षालनं करिष्यामि.
उत्तमं भगिनि. अत्र शोभा भगिनी भवती वदतु, अत्र यद् एतानि सर्वाणि वाक्यानि यदि तर्हि योजयित्वा वदतु एकवारं.
यदि धनम् अस्ति तर्हि दानं करोतु, यदि वृष्टिः भवति तर्हि सस्यसमृद्धिः भवति, यदि निर्वाचनम् अस्ति तर्हि कोलाहलः भवति, यदि धूम्रपानं करोति तर्हि अनारोग्यं भवति अथवा भविष्यति. सत् यदि सत्कार्यं करोति तर्हि कीर्तिः लभते. यदि विद्युत् अस्ति तर्हि दीपः ज्वालयामि. यदि उपनेत्रम् अस्ति तर्हि पठनं सुलभं भवति अथवा सुलभः भवति. भगिनि,
अत्र पूर्वस्मिन् वाक्ये दीपं ज्वालयामि, अत्र ज्वलति साधारणरूपं, ज्वालयति णिजन्तरूपं, दीपं ज्वालयामि भवति, अत्र पठनं सुलभं भवति.
यदि जलम् अस्ति तर्हि वस्त्रक्षालनं करिष्यामि.
उत्तमम्. अत्र प्रथमं वाक्यं पश्यन्तु, धनमस्ति चेत् दानं करोमि इति वाक्यमस्ति. अत्र एतत् वाक्यं बहु समीचीनं वाक्यं. धनमस्ति चेदेव यः कोऽपि दानं कर्तुं शक्नोति. तदर्थमेव अत्र श्लोकः अस्ति, विद्या ददाति विनयं, सर्वे जानन्ति एव. तस्मिन् श्लोके अन्तिमे वाक्ये किं वदति इत्युक्ते, धनात् धर्मः ततः सुखं, विद्या ददाति विनयं, विनयात् याति पात्रतां, पात्रत्वात् धनमाप्नोति, धनात् धर्मः ततः सुखं. सुखं कथं मिलति इत्युक्ते, धनात् धनस्य दानं कुर्मः चेदेव सुखं मिलति इति श्लोकः वदति. अत्र आचार्यमहोदय एकवारं वदतु, अत्र वृष्टिः इति पदमस्ति, तत् पदं कथं निष्पन्नं भवति, भवान् जानाति चेत् वदतु.
भगिनि, वृष्टिः न जानामि.
कोऽपि वदतु.
वृष्टक्तात्प्रत्यय.
वदतु भगिनि. अत्र वृष् धातुः एव. वृष् धातोः लट्लकाररूपं वर्षति, किन्तु तत्र क्तिन् क्तान्तरूपं नास्ति. क्तिन् रूपं, क्तिन् प्रत्ययान्तरूपमेव वृष्टिः, यथा दृष् दृष्टिः. किन्तु दृष् धातोः रूपं दृष्ट इति वदामश्चेत् तत्र क्तान्तरूपं दृष्ट, किन्तु क्तिन् रूपम् अस्ति. उत्तमम्. अनन्तरम् अत्र सस्यसमृद्धिः इति पदमस्ति. अत्र सस्यसमृद्धिः, अरुणा भगिनी वदतु, अत्र समासः कः?
सस्यायाः समृद्धिः
कथं वक्तव्यं? सस्यम् इति नपुंसकलिङ्गपदम्.
सस्यास्य समृद्धिः.
सस्यस्य समृद्धिः अथवा सस्यानां समृद्धिः. तत्र समृद्धिः इति पदमस्ति. तत्रापि पदं सम् इति उपसर्गः अस्ति. तत्र
सम्यक् वृद्धिः भवति इति सम्यक् समृद्धिः.
सम्यक् वृद्धिः. तत्र किं वदामः इत्युक्ते, तत्र रुद्ध धातुः अस्ति, रुध्नोति. तत्र वृद्धौ इत्यस्मिन् अर्थे. अत्र समृद्धिः इत्युक्ते पुष्कलता, सम्पन्नता अथवा बाहुल्यम् इति अस्ति. तत्र रुद्धिः रुद्ध धातोः रूपमेव रुद्धिः. वयं जानीमः बुद्ध धातोः रूपं बुद्धिः, तिन् प्रत्ययान्तरूपं, तथा एव रुद्ध धातोः रूपं रुद्धि. साधारणतया वयं जानीमः एव, धनधान्य समृद्धिरस्तु इति वाक्यम्. उत्तमम्. अनन्तरम् अत्र इतोपि किमस्ति, अधुना अभ्यासं कुर्मः. अहम् एकं वाक्यं वदामि चेत् योजयित्वा. छात्राः सन्ति चेदेव अध्यापकः पाठयितुं शक्नोति. तथा एव कक्ष्यायाम् अध्यापकः न आगच्छति अथवा नास्ति चेत् छात्राः कोलाहलं कुर्वन्ति. तादृशरीत्या वाक्यानि. भूमा भगिनी एकं वाक्यं वदतु.
गृहे धान्यानि समृद्ध्या भवति चेत् अतिथिसत्कारं सम्यक् रीत्या करोमि.
करोमि. अपि च अहं प्रथमभागं वदामि, भवती द्वितीयभागं वदतु. फलमस्ति चेत्
बालकाः आनन्देन खादिष्यन्ति.
उत्तमं. लेखनी अस्ति चेत्
पत्रं लेखितुम् इच्छामि, लेखितुं शक्नोमि.
उत्तमं. काफी पानम् अस्ति चेत्
सर्वे पिबन्ति.
उत्तमं भगिनी. अनन्तरम् उषा भगिनी भवती वदतु. मधुरखाद्यानि सन्ति चेत्
वयं खादामः, आनन्देन खादामः.
उत्तमं. कन्दुकः अस्ति चेदेव
बालकाः क्रीडन्ति.
अभ्यासपुस्तकम् अस्ति चेदेव
उत्तमरीत्या अभ्यासं कर्तुं शक्नोमि.
उत्तमं. पिपासा अस्ति चेदेव
पातुं
शक्नोमि. इत्युक्ते पिपासा अस्ति चेत् जलं पिबामि.
फलरसं पिबामि.
उत्तमं. तावदेव. अनन्तरं शोभा भगिनी भवती वदतु. अत्र आसन्दाः सन्ति चेत्
जनाः उपवेष्टुं शक्यन्ते.
उपवेष्टुम्. उत्तमम्. अनन्तरं वातावरणं सम्यक् अस्ति चेत् क्रिकेट् क्रीडा.
वातावरणं सम्यक् अस्ति चेत् कन्दुकस्य क्रीडा भवति.
उत्तमम्. बहिः हिमपातः पतति चेत्
अन्तः स्तः अहम् आनन्देन पश्यामि.
अनन्तरम् अत्र सुधाखण्डः अस्ति चेदेव अध्यापकः
कृष्णफलके लेखितुं शक्येत.
लेखितुं शक्नोति. अपि च संस्कृतछात्राः वर्गम् आगच्छन्ति चेत्
अभ्यासः सम्यक् भवति.
उत्तमं. जिज्ञासा अस्ति चेदेव संस्कृतं
ज्ञातुम् इच्छामः.
उत्तमं.
ज्ञातुमपि पठितुं.
तदेव. तत्र जिज्ञासा अस्ति चेत् संस्कृतम् अध्येतुं शक्नुमः. तत्र जिज्ञासा आवश्यकी. अत्र एतत् पदं कथम् आगतं, तत् पदं कथम् आगतं, तादृशी जिज्ञासा आवश्यकी. अपि च अत्र धन्यवादः भगिनी. अनन्तरम् अत्र नलिनी भगिनी भवती वदतु कानिचन वाक्यानि चेत् योजयित्वा.
अतिवृष्टिः भवति चेत् मम बहिः गन्तुं शक्यते. अतिवृष्टिः अस्ति चेत् अहं बहिः न गन्तुं शक्नोमि. सारी.
उत्तमं भगिनि, इतोपि वदति वा वाक्यानि? वदतु भगिनि.
व्यायामं कुर्वन् चेत् स्वस्थः आरोग्यस्वस्थः भवति.
व्यायामं कुर्मः चेदेव स्वास्थ्यं सम्यक् भवति. उत्तमं. साधारणतया कक्षायाम् अध्यापकः किं वदति? संशयाः सन्ति चेत् पृच्छन्तु. तथा एव पिता वदति पुत्रं प्रति, किं वदति? एवं रीत्या पठति चेत् परीक्षायां किं लेखितुं शक्नोति भवान्?
उत्तीर्णः न
भवति. वदतु भगिनि.
उत्तीर्णः न भवति, न लभते.
उत्तीर्णः न भवति. इत्युक्ते तत्र इतोपि किं वदामः? सङ्कोचः मास्तु. किमपि आवश्यकं चेत् स्वीकरोतु. तथा एव अत्र पुस्तके एकं वाक्यमस्ति, भवान् शीघ्रं नागच्छति चेत् लोकयानं न मिलति,
लभ्यते.
लोकयानं न लभते. लभते आत्मनेपदी अपि च अकर्मकधातुः. लोकयानम्
अस्ति बहिनी, तत्र लभ्यते.
लभ्यते इति अपि अस्ति. लभ्यते इति पदं कर्मणि लट्, लभते कर्तरि लट्.
मया न लभ्यते.
तत्र तृतीयान्तं रूपं योजनीयं, मया वा अथवा त्वया वा भवद्भिः वा. वदतु.
भवान् तत्र गम्ये गच्छति चेत् लोकयानं लभ्यते, नो चेत् न लभ्यते.
भवान् शीघ्रं गच्छति चेत् लोकयानं लभ्यते. इत्युक्ते भवता लभ्यते इति अर्थः एव तत्र. अनन्तरम् अन्तिमं वाक्यं चेत् इत्यस्य कृते, यदि वयं काञ्चित् भारतीयभाषां जानीमश्चेत् संस्कृत अध्ययनं बहु सुलभं भवति. तदा तादृशरीत्या चेत् योजयित्वा वाक्यानि रचयितुं शक्नुमः. अनन्तरम् अत्र नो चेत् इति पदमस्ति. नो चेत् योजयित्वा अत्र कानिचन वाक्यानि सन्ति. आचार्यमहोदय, भवान् करोति वा अत्र वाक्यानि?
उदाहरणं दृष्ट्वा तादृशानि त्रीणि वाक्यानि लिखतु. प्रथमम्, अवकाशः भवति चेत् आगच्छतु, नो चेत् मास्तु. एतत् वस्त्रस्य अल्पमूल्येन ददाति चेत् क्रीणामि, नो चेत् न. भवान् तत्र समये गच्छति चेत् लोकयानं लभ्यते, नो चेत् न लभ्यते.
उत्तमं. कानिचन वाक्यानि श्रावयतु महोदय.
जलम् अस्ति चेत् मह्यं ददातु, नो चेत् किं वदामि, नो चिन्ता मास्तु.
चिन्ता मास्तु.
धनम् अस्ति चेत् ददातु, नो चेत् ऋणं कृत्वा ददातु.
अस्तु. उत्तमं. तादृशरीत्या एव वाक्यानि सन्ति. अत्र इतोपि किञ्चित् अभ्यासं कर्तुमिच्छामश्चेत् अत्र भूमा भगिनी एकवारं वदतु, गृहे मूषकाः सन्ति चेत् मार्जारः वदतु.
मार्जारं पोषणं आवश्यकम्.
उत्तमं. उत्तमं, तदेव मार्जारः आवश्यकः. नो चेत्
मार्जारस्य आवश्यकं नास्ति.
उत्तमम्. अपि च अस्मिन् गृहे शुनकः अस्ति चेत् तत्र
अत्र चोराणां भयं नास्ति, नो चेत् चोरात् भयं सर्वदा अस्ति.
चोरभयं गृहे शुनकः अस्ति चेत् चोरभयं नास्ति, नो चेत् चोरभयं नास्ति. तथा एव यदि गृहे शुनकः अस्ति चेत् तत्र भयेन मा धावतु. तत्र उत्तमम्. अपि च फलमस्ति चेत् खादतु, नो चेत्
मास्तु.
मास्तु उत्तमम्. उत्तमम्. अपि च जल पिपासा अस्ति चेत् जलं पिबतु, नो चेत्
दुग्धं पिबतु.
दुग्धं पिबतु उत्तमम्. अपि च केचन बालकाः परीक्षा अस्ति चेदेव पठन्ति, नो चेत्
सर्वदा क्रीडन्ति.
उत्तमम्. इतोपि कोऽपि वदति वा अन्यानि वाक्यानि? नलिनी भगिनी वदतु कानिचन वाक्यानि.
एतत् औषधं स्वीकरोतु, नो चेत् स्वास्थ्यं न लभ्यते.
स्वास्थ्यं न लभ्यते. उत्तमम्.
पतिः गृहे अस्ति चेत् किमपि आरामः न मिलति. नो चेत् अहम् आनन्देन
अस्तु. उत्तमम्. उत्तमम्. इत्युक्ते अत्र अहं प्रथमभागं वदामि. उषा भगिनी भवती वदतु. अत्र विद्युत् अस्ति चेदेव दीपः ज्वलति. दीपः ज्वलति. वदतु. नो चेत्
अन्धकारः अस्ति.
अन्धकारः अस्ति. उपनेत्रं धरामि चेदेव पठितुं शक्नोमि, नो चेत्
निद्रां करोमि.
उत्तमम्. भवान् श्रान्तः अस्ति चेत् निद्रां करोतु. तत्र अहमेव उक्तवती, किमपि नास्ति. कन्याकुमारीं गच्छति चेत् सूर्यास्तं पश्यतु, नो चेत्
पुनरेकवारं वदतु भगिनि.
कन्याकुमारीं गच्छति चेत् सूर्यास्तं पश्यतु.
सूर्यास्तं सन्सेट् पश्यतु. नो चेत् मन्दिरं गच्छतु.
मन्दिरं गच्छतु. शिशुः रोदनं करोति चेत् अम्बा आगच्छति. इतोपि किं वदामः तत्र? नो चेत्
बहु उच्चैः शिशुः रोदनं करोति.
वस्त्रमस्ति चेत् सीवनं कारयतु, नो चेत्
वस्त्रमस्ति चेत् सीवनं कारयतु. नो चेत् गो औट्सैड् अण्ड् गिव् इट् टु द टेलर्.
अस्तु. उत्तमं. इच्छा अस्ति चेत् भोजनं करोतु,
नो चेत्
उपवासं करोतु. वायुः अस्ति चेत् जनाः जीवन्ति, नो चेत्
मरणं प्राप्नुवन्ति.
म्रियन्ते.
आत्मनेपदि म्रियन्ते.
म्रियते.
म्रियते. म्रियन्ते. उत्तमम्. अपि च अत्र कार्यालये अधिकारी अस्ति चेत् केचन जनाः कार्यं कुर्वन्ति, नो चेत्
कोलाहलं
जल्पनं कुर्वन्ति.
जल्पनं कुर्वन्ति.
भाषणं कुर्वन्ति.
भगिनी वदतु, उषा भगिनी.
कोलाहलमपि कुर्वन्ति न भगिनी?
कोलाहलमपि, कोलाहलमपि कुर्वन्ति. कोलाहलं भिन्नः, किन्तु जल्पनं भिन्नः. जल्पनं कुर्वन्ति केचन जनाः. उत्तमं. संस्कृतकक्षा अस्ति चेदेव कक्षाम् आगच्छन्ति, नो चेत् गृहे तिष्ठन्ति केचन. अत्र अधुना समयः अस्ति चेत् कथां पठामः, नो चेत् विरमामः. अधुना अत्र अस्माकं पार्श्वे एका कथा अस्ति, दरिद्रतायाः भ्रान्तिः इति कथा अस्ति. शीघ्रं कथां समापयामः. अत्र सर्वे एकवारं अत्र करपत्रं पश्यन्तु. अत्र कथा अत्र शङ्कर रोहिडा नाम्ना एकः अस्ति. अत्र अरुणा भगिनी, भवत्याः पार्श्वे अस्ति वा करपत्रम्?
अहं शृणयामि, उत्तरं लभितुं न शक्नोमि. सो कृपया लेट् मी हियर्. ऐ वुड् ट्राय टु
अस्तु महोदय, चिन्ता मास्तु, शृणोतु, चिन्ता मास्तु.
धन्यवादः, धन्यवादः, धन्यवादः.
अधुना अत्र उषा भगिनी, अत्र कथायाः करपत्रं पुरतः अस्ति चेत् पठतु. अत्र
दरिद्रतायाः भ्रान्तिः. कश्चन दरिद्रः आसीत्. सः एकदा अब्रहाम् लिंकन् महोदयस्य समीपं गतवान्. अहं बहु दरिद्रः, मम गृहं नास्ति, धनं नास्ति, धर्तुं वस्त्राणि अपि न सन्ति, खादितुम् अन्नं नास्ति, अतः किमपि दातुं कृपया इति वदन् रोदनं कृतवान्. तस्य वचनं कृत्वा
भगिनी अत्र अत्र स्थगयतु. अत्र किञ्चित् किञ्चित् खण्डशः पश्येम. अत्र कथायाः शीर्षिका का?
दरिद्रतायाः भ्रान्ति.
अत्र रूपं किं दरिद्रतायाः?
षष्टिविभक्ति. दरिद्रता स्त्रीलिङ्ग अस्ति, दरिद्रतायाः षष्टिविभक्ति एकवचनं. भ्रान्तिः,
वदतु, भ्रान्तिः इत्युक्ते किम्?
भ्रान्तिः इत्युक्ते कन्फ्यूषन् अस्ति वा भगिनि?
कन्फ्यूषन्. भ्रान्तिः इत्युक्ते कन्फ्यूषन्, चित्तभ्रान्तिः. अत्र भ्रम् धातोः रूपम् एव भ्रान्तिः, क्तिं प्रत्ययान्तरूपम्. अत्र संस्कृतभाषायां वदामश्चेत् किं वदामः? मिथ्यादृष्टिः. अत्र भ्रान्तिः इत्युक्ते मिथ्यादृष्टिः इति वदामः. अत्र पश्यतु, अब्रहाम् लिंकन् महोदयस्य इति लिखितमस्ति, तथा किमर्थं लेखनीयम्? इत्युक्ते अत्र अहं अत्र किं वक्तुमिच्छामि इत्युक्ते, अत्र साधारणतया नाम भारतीयनाम अस्ति चेत् तत्र रमेशस्य अथवा गणेशस्य तथा वदामः, किन्तु अब्रहाम् लिंकन् इति तत्र भारतीयनाम नास्ति, तदर्थं किं वदामः? अब्रहाम् लिंकन् महोदयस्य इति वदामश्चेदेव तत्र सम्यक् भवति. अब्रहाम् लिंकनस्य न वदामः. यथा वयं चेन्नै किं वदामः? अत्र पाटलीपुत्रं गच्छामि, पाटलीपुत्र तथा वदामः. किन्तु अत्र सान् फ्रान्सिस्को गच्छामि इति न वदामः, सान् फ्रान्सिस्को नगरं गच्छामि. किमर्थमित्युक्ते तत्र नाम भारतीयनाम नास्ति, अत्र अब्रहाम् लिंकन् महोदयस्य, तदर्थं तथा लेखनीयम्. उत्तमम्.
अत्र नकारस्य लोपः भवति, न लोपः प्रातिपदिकस्य.
आ प्रातिपदिक
राजन्.
आं महोदय, आङ्ग्लभाषापदं न, आङ्ग्लभाषापदमस्ति लिङ्कन् इति पदम्, आङ्ग्लभाषापदमस्ति इति कृत्वा. आ अत्र दरिद्रः भगिनि भवती एव वदतु अत्र किम् अभवत्.
एकः दरिद्रः अस्ति, तस्य पार्श्वे गृहं नास्ति, धनं नास्ति, ओ बहु दरिद्रः इत्युक्ते धनं नास्ति, वस्त्राणि अपि धर्तुं नास्ति तत्र पार्श्वे, खादितुमपि नास्ति, किमपि नास्ति तत्र पार्श्वे. अतः सः पृच्छति, महोदय किमपि ददातुम् इति रोदनं करोति.
करोति, उत्तमम्. अत्र आसीत् इति क्रियापदमस्ति, किञ्चित् एकवारं वदतु अन्येषां कृते आसीत् रूपाणि.
आसीत्, आस्ताम्, आसन्, आसीः, आस्तम्, आस्त, आसम्, आस्व, आस्म.
धन्यवादः भगिनी. अत्र दरिद्रः इत्युक्ते निर्धनः. संस्कृतभाषायां दरिद्रा इति धातुः अस्ति, दरिद्रा तस्य रूपमस्ति, दरिद्राति इति पदं क्रियापदमस्ति. उत्तमम्. अनन्तरं
पदं रोदनं शत्रुप्रत्यय अस्ति, रोदनं लिट् प्रत्यय अस्ति भगिनि तत्र.
अत्र किम् उक्तवती
इति वदन् रोदनं कृतवान्.
वदन् वदन् कीदृशं रूपं पुनः वदतु.
शत्रुप्रत्यय, रोदनं लिट् प्रत्यय.
लिङ्गं
वदन् पुंलिङ्गे अस्ति भगिनि.
पुंलिङ्गम् एकवचनं, उत्तमं. प्रातिपदिकं किम्?
प्रातिपदिकं रुद् वद् धातु, रोदनम् अस्य रुद् धातु अस्ति.
अत्र वदन् इत्यस्य प्रातिपदिकं वदत्.
वदत्
तकारान्तपदम्, उत्तमं. रोदनं यथा भवती उक्तवती ल्युडन्तरूपं, रुद् धातोः रूपं रोदनम्, उत्तमं. भूमा भगिनी भवती पठतु अग्रिमं परिच्छेदम्.
तस्य वचनं श्रुत्वा लिङ्कन् महोदयः पृष्टवान्, भवान् निश्चयेन दरिद्रः किम् इति. अहम् असत्यं न वदामि, सर्वदा सत्यमेव वदामि. अहं दरिद्रः इत्यत्र नास्ति एव सन्देहः इति उक्तवान् दरिद्रः.
उत्तमं, तत्र किमपि काठिन्यं नास्ति. अत्र असत्यम् इति पदमस्ति. अत्र आचार्य महोदय भवान् एकवारं वदतु अत्र समासस्य नाम वदतु, विग्रहवाक्यम्. असत्यम्
असत्यं तत्पुरुषसमासः न विग्रहवाक्य न सत्यं सारि न सत्यम् असत्यम्.
उत्तमम्, उत्तमं, तदेव. इत्युक्ते अत्र न सत्यम् असत्यम्, अत्र नञ् तत्पुरुषसमासः इति वदामः. अनन्तरम् अत्र सत्यमेव इति पदमस्ति, अत्र सन्धिः अस्ति वा? शोभा भगिनी वदतु.
पुनरेकवारं वदतु भगिनी, क्षम्यताम्.
सत्यमेव इति पदमस्ति, सत्यमेव.
सत्यं योगः एव, सत्यं तत्र हलन्त आगच्छति, तत्र वर्णमेलनम् एव भवति वा भगिनि?
वर्णमेलनमेव.
सत्यं मकारः एकारः स्वीकृत्य स्वीकृत्य मे इति भवति.
उत्तमं, केवलं वर्णमेलनमस्ति. अत्र पूर्वस्मिन् परिच्छेदे अत्र निश्चयेन इति पदं लिखितमस्ति, अस्माकं कृते नूतनं पदं, वयम् अभ्यासं कृतवन्तः एव. भवान् निश्चयेन दरिद्रः किम् इति सः वदति. अनन्तरम् अत्र इत्यत्र शोभा भगिनी वदतु, अत्र सन्धिः सन्धेः नाम वदतु.
इति अत्र इत्यत्र तत्र यण् सन्धिः भवति भगिनि.
यण् सन्धिः अत्र सन्देहः इत्युक्ते शङ्का अथवा संशयः इति वदामः. अत्र सन्देहः इति पदं कथमागतम् इति पश्यामश्चेत् सम् उपसर्गः अस्ति, दिह् धातुः, दिह् धातुः. सन्देशः इति वदामश्चेत् सम् उपसर्गः अस्ति, दिश् धातुः, घञ् प्रत्ययः. अत्रापि दिह् धातुः, घञ् प्रत्ययः अस्ति. सन्देहः सम् उपसर्गपूर्वकः अस्ति. अत्र वाक्यं वाक्यानि सुलभानि एव. भवती एव पठतु अत्र अग्रिमं परिच्छेदं.
भवान् दरिद्रः खलु, अतः एवं करोतु, भवान् स्वस्य हस्तद्वयं मह्यं ददातु, भवते लक्ष डालर् परिमितं धनं दास्यामि, तदा भवतः दरिद्रता निवारिता भविष्यति इति लिंकन् महोदयेन उक्तम्.
अत्र अत्र भवान् स्वस्य हस्तद्वयं मह्यं ददातु. अत्र मह्यं किमर्थं चतुर्थीरूपं?
ददातु दा धातु अस्ति, दा धातु अकर्मकधातु.
अत्र भगिनि दा धातुः सकर्मकः एव.
ददाति क्षम्यतां, चतुर्थी विभक्ति एव स्वीकरोति.
दानार्थे उत्तमं, तदेव वक्तव्यं. सम्प्रदाने चतुर्थी, सम्प्रदाने चतुर्थी इति शृणुमः. इत्युक्ते सम्प्रदाने इत्युक्ते सम् उपसर्गः, प्रा उपसर्गः, दाने चतुर्थी रूपमेव योजनीयं. मह्यं ददातु, तुभ्यं ददामि, तादृशरीत्या. भवते अत्र भवते कीदृशं रूपं?
तत्र भवते लक्ष डालर् परिमितं धनं दास्यामि, तत्र पञ्चमी भवते चतुर्थी अस्ति वा? हा चतुर्थी.
उत्तमम्. इत्युक्ते वदतु वदतु.
न अहं भवता षष्टि अस्ति, किमपि नास्ति भगिनि, क्षम्यताम्.
उत्तमम्. इत्युक्ते अत्र भवान् शब्दस्य रूपमेव भवते चतुर्थी रूपम् अस्ति, भवता इति तृतीयान्तं रूपम्. अत्र भवते दास्यामि, भवते किं दास्यामि? लक्ष डालर परिमितं, डालर् परिमितं धनं दास्यामि इति. किमर्थं तथा उक्तवान् सः अब्रहां लिंकन् महोदयः, वदतु किञ्चित्.
किमर्थं चेत् दरिद्रः उक्तवान् तत् एकनिमिषं तस्य वचनं श्रुत्वा अहम् असत्यं न वदामि. लिंकन् महोदया उक्तवान् पृष्टवान् भवान् निश्चयेन दरिद्रः किम् इति. उत्तररूपेण दरिद्रः उक्तवान् अहम् असत्यं न वदामि, सर्वदा अहं दरिद्रः एव इति. तदर्थं लिंकन् महोदया भवन्तं परीक्षार्थं अतः पृष्टवान् यदि दरिद्रः अस्ति चेत्. किमर्थं चेत् तस्य द्वे हस्तौ अस्ति अपि, अतः भवान् कार्यं कर्तुं शक्नोति, तथापि सः कार्यं न कर्तुम् इच्छति, दानमेव इच्छति.
स्थानमेव इच्छति. उत्तमम्. अत्र हस्तद्वयम्
एकनिमिषं भगिनि, क्षम्यताम्, मया गन्तव्यम् एकनिमिषम्.
अत्र हस्तद्वयम् इति पदमस्ति. अत्र द्वयम् इत्यस्मिन् विषये तत्र अन्यानि पदानि अपि सन्ति. युगलम् अथवा युग्मम् इति पदानि पर्यायवाचकपदानि सन्ति. अत्र इतोपि किमस्ति, दरिद्रता निवारिता भविष्यति इति लिङ्कन् महोदयेन उक्तम्. अत्र उषा भगिनी भवती पठतु अग्रिमं परिच्छेदम्.
हस्तद्वयं भवते दत्त्वा अहं कथं कार्यं करोमि? तौ मम अमूल्यहस्तौ, तौ दातुं न शक्नोमि इति दरिद्रः उक्तवान्. तदा लिङ्कन् महोदयः उक्तवान्, तर्हि भवतः पादद्वयं ददातु, $2,00,000 परिमितं धनं दास्यामि इति.
अत्र तौ मम अमूल्यहस्तौ कीदृशं रूपं?
तौ सः तौ तौ इत्युक्ते सः तौ अस्ति वा भगिनि अपि?
अत्र हस्तः इति पुंलिङ्गपदमस्ति.
तौ हस्तौ,
तौ हस्तौ, उत्तमम्. अत्र अमूल्यहस्तौ इति अपि द्विवचनरूपम् अस्ति, किन्तु समस्तपदम्. अत्रापि विशेषणपूर्वपदकर्मधारयसमासः एव अस्ति. अमूल्यौ हस्तौ अत्र द्विवचनरूपम् उक्तमस्ति. तदा सः किं वदति, $2,00,000 परिमितं धनं दास्यामि इति वदति. स्वस्य वाक्यैः वदतु किञ्चित् अत्र किम् अभवत्.
लिङ्कन् महोदय पृष्टवान् पादद्वयम् अपि ददातु, अहं $2,00,000 परिमितं धनं दास्यामि इति. लिङ्कन् महोदय उक्तवान् पादद्वयम् अपि हस्तद्वयम् अपि पादद्वयम् अपि ददातु.
उत्तमं. तत्र दास्यामि लकारः कः?
दास्यामि लृट् लकारः अस्ति भगिनि.
लृट् लकारः, उत्तमं. भूमा भगिनी भवती पठतु अग्रिमं परिच्छेदम्.
लिङ्कन् महोदयस्य वचनानि श्रुत्वा दरिद्रः आतङ्केन, आर्य किं वदति भवान्, यदि पादद्वयं ददामि तर्हि कथं चलामि? भवान् $10,00,000 परिमितं धनं ददाति चेदपि अहं दातुं न शक्नोमि, पादौ मम अमूल्यौ इति उक्तवान्.
उत्तमम्. अत्र आतङ्केन उक्तवान् इति दत्तमस्ति. आतङ्केन इत्युक्ते किम्?
आतङ्केन चिन्ताकुलं भूत्वा.
उत्तमम्. इत्युक्ते अत्र अन्यानि पदानि सन्ति, व्यथया अथवा मनःपीडया, मनोवेदनया अथवा मनस्तापेन एतानि पदानि योजयितुं शक्नुमः अत्र. आर्य इति पदमस्ति. आर्य इत्युक्ते किम्?
आर्य पूजनीय महोदय,
पूजनीयः इत्युक्ते आदरणीयः अथवा मान्यमहोदयः इति वदामः. मान्यमहोदय अत्र अत्र इतोपि किमस्ति इत्युक्ते किं वदति भवान्, यदि पादद्वयं ददामि तर्हि कथं चलामि? भवान् $10,00,000 परिमितं धनं ददाति चेदपि, अत्र चेदपि सन्देहः नाम किं वदति?
अपि चेदपि चेदपि जस्त्वं भवति.
उत्तमं. व्यस्तसन्धिः, उत्तमम्. अनन्तरम् अग्रिमपरिच्छेदं शोभा भगिनी भवती करोतु, शीघ्रं समापयामः.
लिङ्कन् महोदयः पुनः उक्तवान्, भवान् हस्तद्वयं दातुं न शक्नोति, पादद्वयमपि दातुं न शक्नोति खलु? भवतु नाम भवतः नेत्रद्वयं ददातु. तान् निमित्तम् अहं भवते चतुर्लक्ष डालर् परिमितं धनं दास्यामि। तेन भवान् सुखेन जीवितुं शक्यति इति।
तत् शक्यति अत्र अत्र किं दत्तमस्ति? तन्निमित्तं तन्निमित्तं कीदृशं पदं?
तत् निमित्तं तत्र अनुनासिकसन्धि भवति वा भगिनि? तत् योगः निमित्तम्
उत्तमं। प्रथमतया जस्त्वं भवति, तद् भवति, तदनन्तरं तदनन्तरं यरोनुनासिकेनुनासिको वा इति सूत्रे अस्ति इति कृत्वा तत्र विकल्पेन रूपद्वयं सम्भवति। अत्र अनुनासिकसन्धिः भवति। अत्र पश्यतु, भवतु नाम इति लिखितमस्ति, तस्य अर्थः कः? भवतु नाम
भवतु इत्युक्ते लोट्लकारे लोट्लकारे भवतु इति नाम
लेट् इट् बी अस्ति वा भगिनि?
नाम किमर्थम्?
कोऽपि वदति वा अत्र? अत्र
अस्तु इति लेट् इट् बी।
उत्तमम्, इट्स् ओके लेट् इट् बी।
किन्तु नाम इति किमर्थम् अस्ति भगिनि तत्र?
तथा तादृशरीत्या वक्तव्यं, भवतु नाम किमपि किमपि भवतु नाम, लेट् इट् बि, इट्स् ओके।
वयं भवतु एव वक्तुं शक्नुमः, अपि भवतु नाम अपि समान अस्ति वा?
समानार्थः। भवतु नाम किमपि, तत्र कापि चिन्ता नास्ति। जानेदो जानेदो इत्यस्मिन् अर्थे उत्तमं। तन्निमित्तम् अहं भवते चतुर्लक्ष डालर् परिमितं धनं दास्यामि। तेन भवान् सुखेन जीवितुं शक्ष्यति, शक्ष्यति लुट्लकाररूपम्। आचार्य महोदय, भवान् पठतु अग्रिमं परिच्छेदं।
तर्षत्वा कुपितः दरिद्रः तं बहु तर्जितवान्। एवम् उपहासं कुर्वन् भवान् मां मूर्खं मन्यते किम्? एकवारं हस्तद्वयं ददातु इति वदति, पुनः पादद्वयं ददातु इति वदति, अनन्तरं नेत्रद्वयं ददातु इति वदति। नेत्रे दत्ते चेत् अहं कथं पश्येम पश्येयं, कथं जीवेयं? धनार्थं मम अङ्गानि दत्त्वा अहं पराधीनः भवितुं न इच्छामि। भवान् कोटिपरिमितं धनं ददाति चेदपि अहं भगवता दत्तानि अत्यमूल्यानि अङ्गानि न ददामि इति कोपेन आक्रोशनं कृतवान् दरिद्रः।
आक्रोशनं कृतवान् दरिद्रः। अत्र मूर्खं मन्यते किम्? अत्र मन् धातोः रूपमेव मन्यते। अत्र मूर्खं मन्यते इति दत्तमस्ति। अत्र अहं चिन्तयामि मूर्खशब्दः अपि अत्र मुह् धातोः रूपं मूढ इति पदमस्ति, तथा एव मुह् धातोः रूपमेव मूर्ख अपि इति अहं चिन्तयामि। अत्र उपहासः इति पदमस्ति, उपहासः इत्युक्ते सर्कास्टिक्, परिहासं करोति, सर्कास्टिक्ली इति वदामः, उपहासं कृत्वा वदति सः। अत्र पश्येयं जीवेयम् इति अस्ति, अत्र पदद्वयं कीदृशं रूपं? शोभा भगिनी वदतु।
ल्युडन्त ल्युडन्तरूपं भगिनि?
उषा भगिनी वदतु।
विधिर्लिङ्ग् अस्ति भगिनि।
अत्र पुरुषः कः, रूपं किम् अत्र वदतु?
पुंलिङ्ग अस्ति, पश्येयम् उत्तमपुरुष
इत्युक्ते तत्र लिङ्गम् इति न वदामः, तत्र किं वक्तव्यम्? उत्तमपुरुष एकवचनं विधिलिङ्गलकाररूपम्। विधिलिङ्गरूपाणि कथं भवन्ति इत्युक्ते अत्र पश्येत्, पश्येतां, पश्येयुः, पश्येः, पश्येतं, पश्येत, पश्येयं, पश्येव, पश्येम तादृशानि रूपाणि भवन्ति. अत्र पूर्वस्मिन् परिच्छेदे कुपितः इति पदमस्ति. कुपितः अत्रापि कुप् धातुः, किन्तु लट्लकाररूपं कुप्यति. तत्र यकारः श्रूयते इति कृत्वा दिवादिगणीयधातुः कुप्यति, दिवादिगणीयधातुः अस्ति, किन्तु तत्र इडागमः अभवत्, कृतान्तरूपं कुपित इति रूपम् अस्ति. कोपेन अग्रे गत्वा किं लिखितमस्ति, भवान् कोटिपरिमितं धनं ददाति चेदपि. अस्माकम् अद्य अस्माकं नूतनं पदं चेत् चेदपि, अहं भगवता दत्तानि अत्यमूल्यानि अङ्गानि न ददामि. अत्र भूमभगिनी वदतु, भगवता कीदृशं रूपं?
भगवता चतुर्थी विभक्ति
न उत्तमम्. अत्र भगवता इति भगवान् शब्दस्य तृतीयान्तं रूपम् अस्ति. अत्र भगवता दत्तानि अङ्गानि. अत्रापि इतोपि किमस्ति, कोपेन आक्रोशनं कृतवान्. अत्र एकं वदामि, सर्वे पश्यन्तु, दत्वा दत्वा इति बहुवारं लिखितमस्ति. अत्र दत्वा इति पदं पश्यामश्चेत् तत्र तकारः द्विवारं लेखनीयं, सर्वे एकवारं मनसि स्थापयन्तु. दत्वा इति यदा कदापि लिखामः तत्र तकारः द्विवारं लेखनीयं. दत्ते इति वदामश्चेत् तत्र जानीमः एव, किन्तु दत्वा तत्र द्विवारम् आगच्छति तकारः. भगिनी अत्र वदतु, नेत्रे दत्ते तत्र रूपं किम्?
नेत्रे द्विवचनं, द्विवचनं नेत्रे, द्वे नेत्राणि सन्ति न,
द्वे नेत्रे स्तः, अतः द्विवचनरूपम्. उत्तमम्. अनन्तरम् अत्र आक्रोशनं इति पदमस्ति, अत्रापि कोऽपि वदति वा आक्रोशनम् इत्यस्य विषये?
लुडन्तपदमस्ति, आ उपसर्ग,
आ उपसर्ग,
कृष् धातुः, आक्रोशति, क्रोशति इति रूपम्, आक्रोशः इति पदमस्ति, किन्तु अत्र लुडन्तरूपं दत्तमस्ति. उत्तमं.
भगिनि, नेत्रे दत्ते इति सतिसप्तमी अस्ति न? नेत्रे दत्ते चेत्
नेत्रे दत्ते सति, अत्र
सतिसप्तमी अस्ति वा? अत्र नेत्रे दत्ते अहं कथं पश्येयं? नेत्रे दत्ते चेत् नेत्रे दत्ते
अत्र सतिसप्तमी इव भाति, किन्तु अत्र द्विवचनम् एव दत्तमस्ति यथा भगिनी उक्तवती, नेत्रे दत्ते सति. अस्तु. अनन्तरम् अत्र आक्रोशनं कृतवान्. अग्रिमपरिच्छेदम् उषा भगिनी भवती पठतु.
लिङ्कन् महोदयः शान्तस्वरेण, भोः शृणोतु, तानि सर्वाणि अङ्गानि अत्यमूल्यानि इत्यतः तानि दातुं निराकृतवान् भवान्. यद्यपि एतानि अमूल्यानि सुदृढानि अङ्गानि प्राप्तानि भवता, तथापि अहं दरिद्रः इति किमर्थं वदति भवान्? भवान् प्रपञ्चस्य कश्चन दृढकायः आरोग्यवान् जनः, स्मरतु एतत्. तेषां सदुपयोगं चिन्तयतु, तथा करोति चेत् भवान् कश्चन महापुरुषः अपि भवितुम् अर्हति. इत्येतावत् यदा उक्तवान् तदा झटितिः सः दरिद्रः लिङ्कन् महोदयस्य हस्तद्वयं गृहीत्वा क्षमां याचन् उक्तवान्, कृपया मां क्षाम्यतु, मम समीपे एतानि अमूल्यानि वस्तूनि सन्ति इति एतावत्पर्यन्तं मया न ज्ञातम् एव आसीत्. तेषाम् अमूल्यता भवता दर्शिता, अहम् इदानीं आश्वासनं ददामि यत् इतः परम् अहं भिक्षायाचनं न करिष्यामि इति. परिश्रमेण कार्यं कृत्वा सार्थकं जीवनं करोमि. अहं न दरिद्रः इति धैर्येण सर्वेषां पुरतः वदिष्यामि इति. एतानि वचनानि श्रुत्वा लिङ्कनस्य मुखे तृप्तिभावः मन्दहासश्च प्रसृतः
प्रसृतः. उत्तमम्. अत्र अत्र किं दत्तमस्ति इतोपि पश्यामश्चेत् अत्र पराधीनः इति पदमस्ति. पराधीनः, स्वाधीनः, तत्र साधारणतया परतन्त्र, स्वतन्त्र इति पदानि वयं पश्येमः. अत्र पराधीनः इत्युक्ते किं वदामः तत्र?
डिपेण्डेण्ट् आन् समवन् एल्स्.
उत्तमं. साधारणतया वयम् एकं पदं शृणुमः, परवशः इति पदं शृणुमः. परवशः इत्युक्ते तस्य मनः तस्मिन् वशे नास्ति, स्वयं वशः नास्ति इत्युक्ते स्वतन्त्रः नास्ति. तस्य मनः अन्यस्मिन् वशे अस्ति. अत्र परवशः इति वदामः. पराधीनः तथा एव पराधीनः, परतन्त्रः ईदृशानि पदानि सन्ति. अपि च अत्र प्रपञ्च इति पदमस्ति. प्रपञ्च इत्युक्ते किं, कोऽपि वदतु?
भूलोक प्रपञ्चस्य ई भूलोके भवान् प्रपञ्चस्य कश्चन दृढकाय.
अत्र प्र इति उपसर्गः अस्ति. पञ्च पञ्चभूतैः निर्मितम् एव प्रपञ्चं. प्रपञ्च यत्र किमर्थम् अहं पूर्वम् उक्तवती. किमर्थम् इत्युक्ते कस्मै इदम् इति वक्तव्यं तत्र विग्रहवाक्यं. कस्मै इदं किमर्थं चतुर्थी तत्पुरुषसमासः भवति तत्र. प्रपञ्चस्य कश्चन दृढकायः भवान्, तेषां सदुपयोगं चिन्तयतु. एतावत् इतोपि किमस्ति अत्र? अत्र क्षाम्यतु इति लोट्लकाररूपं दत्तमस्ति, किन्तु तत्र दिवादिगणीयधातुः अस्ति. क्षाम्यति तत्र यकारः श्रूयते. साधारणं भुवादिगणीयधातुः अपि क्षमते अस्ति, किन्तु दिवादिगणे अपि क्षाम्यति इति रूपमस्ति, किन्तु तस्य लोट् रूपं दत्तमस्ति. मया न ज्ञातं कर्मण्यर्थे वाक्यमस्ति. अपि च अत्र अत्र आश्वासनम् इति पदमस्ति. आश्वासनम् इत्युक्ते किं?
भरवसे
इत्युक्ते किं वक्तव्यम् अत्र आङ्ग्लभाषायां वदतु महोदय?
रीअश्यूरिङ्ग्
रीअश्यूरेन्स्. अत्र आश्वासनम् इति पदमस्ति. अत्र आ इति उपसर्गः, स्वस् धातुः. स्वस् धातोः रूपमेव स्वस् इति. स्वस् धातुः निजन्तरूपं, किन्तु निजन्तरूपं णिच् प्रत्ययः अपि च लुट् लुडन्तरूपमपि अस्ति. तत्र आश्वासनं, परिश्रमेण कार्यं कृत्वा सार्थकं जीवनं करोमि. सार्थकम् इत्युक्ते किम्?
मीनिङ्ग्फुल्.
सार्थ
इत्युक्ते सार्धवत् अथवा अर्धयुक्तम्, अर्धान्वितजीवितम् अथवा अर्धयुक्तजीवितं. मीनिङ्ग् यथा भगिनी उक्तवती मीनिङ्ग्फुल् लैफ् इति वदामः. अत्र लिङ्कनस्य मुखे
भिक्षायाचनमपि ल्युट् प्रति अस्ति न भगिनी?
याचनं
जीवनम्.
अत्र भिक्षायाचनम् इति समस्तपदं, भिक्षायाः याचनं. नो चेत् तत्र किं वदामः? न, भिक्षायाः भवति वा तत्र?
भिक्षां याचनं,
भिक्षाटनं,
भिक्षाटनम् अस्ति, किन्तु अत्र भिक्षायाचनं समस्तपदम्.
भिक्षायाः भिक्षा इति
अथवा भिक्षाय भवति, भिक्षा आकारान्त स्त्रीलिङ्गपदं भिक्षायै वदामः वा, चतुर्थी भवति वा षष्ठी भवति वा इति द्रष्टव्यं तत्र. उत्तमं. भिक्षायाचनं, याचनं तु ल्युडन्तपदमेव, याचति याचना
याच् धातु
याचना इति ताप्रत्ययान्तरूपम् अस्ति. लिङ्कनस्य मुखे तृप्तिभावः, तृप्तिभावः अपि समस्तपदं, तृप्तेः भावः.
भगिनी अत्र लिङ्कन् महोदय न लिखितमस्ति, लिङ्कनस्य प्रथमचेति लिङ्कन् महोदयस्य, परन्तु अत्र
आं भगिनि आम् उत्तमम्. अत्र लिङ्कनस्य इति लिखितमस्ति, किन्तु साधारणतया तथा न वदामः. अनन्तरम् अत्र अन्तिमं पदं किमस्ति, मन्दः च प्रसृतः. कोऽपि वदति वा प्रसृतः कीदृशं पदम्?
I'm sorry, where are you reading this from? I am not able to see it. Is it a screen sharing or something?
Vadami Mahodaya.
Okay.
Vadami. Atra, atra prasrutaha iti padamasti. Atra Lincoln Mahodaya. Kim badati? Lincoln Mahodaya sya mukhe trupti bhavaha. प्रसृतः इति लिखितमस्ति. अत्र प्रा इति उपसर्गः अस्ति, सृधातुः, सृधातुः क्तान्तरूपम्. अत्र सृधातोः रूपं किं, लट्लकाररूपं?
सरति.
सरति, उत्तमं. सरति, सरस्, सरति, तादृशानि रूपाणि अत्र. उत्तमम्. अत्र भ्रान्तिः पदमस्ति, अपि च भ्रान्तः इति अपि अस्ति. भ्रान्तिः कृतिन् रूपं, भ्रान्तः कृतान्तरूपम्. अत्र अत्र भ्रम, भ्रमः इति पदमस्ति, भ्रमहरः, भ्रमनाशकः एव अत्र लिङ्कन् महोदयः. भ्रमहरः, भ्रमनाशकः. अनन्तरम् अत्र लोके एकं वाक्यमस्ति. वाक्यमित्युक्ते किं वदामि, अत्र प्रोवर्ब् इति वदामश्चेत्, संस्कृतभाषायां प्रोवर्ब् इति वदामश्चेत् आभाणकः इति वदामः. आभाणकः एकः अस्ति. तत् किमित्युक्ते, सः तु दरिद्रः यस्य तृष्णा विशाला इति एकः आभाणकः. इत्युक्ते दर् इस् अ प्रोवर्ब् इन् इङ्ग्लिष् इन् संस्कृतं, यस्य तृष्णा विशाला सः एव दरिद्रः इति वदामः. उत्तमम्. अधुना कालातीतः अभवत्, अत्र स्थगयामः. अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा इतोपि नूतनान् विषयान् ज्ञास्यामः. सर्वेषां धन्यवादः. नमस्कारः.
धन्यवादः भगिनी. नमस्कारः.